ओम नमो भगवते वासुदेवाय। अथ पञ्चदशोऽध्यायः। श्री शुक उवाच, ततश्च पौगण्डवयः श्रितौ व्रजे बभूवतुस्तौ पशुपालसम्मतौ गाश्चारयन्तौ सखिभिः समं पदैर्वृन्दावनं पुण्यमतीव चक्रतुः। तन्माधवो वेणुमुदीरयन्वृतो गोपैर्गृणद्भिः स्वयशो बलान्वितः। पशून् पुरस्कृत्य पशव्यमाविशत् विहर्तुकामः कुसुमाकरं वनम्। तन्मञ्जुघोषालिमृगद्विजाकुलम् हन्मनः प्रक्षपय सरस्वता। वातेन जुष्टम् शतपत्रगन्धिना निरीक्षरन्तुम् भगवान् मनोदधे। स तत्र तत्रारुणपल्लवश्रिया फलप्रसूनोरुभरेण पादयोः। स्पृशच्छिकान् वीक्ष्य वनस्पतीन् मुदा स्मयन्निवाहाग्रजमादिपूरुषः। श्रीभगवानुवाच, अहो अमी देववरामरार्चितम् पादाम्बुजम् ते सुमनः फलार्हणम्। नमन्त्युपादाय शिखाभिरात्मनस्तमोपहत्यै तरुजन्म यत्कृतम्। एते लिनस्तव यशोऽखिललोकतीर्थम् गायन्तादिपुरुषानुपदम् भजन्ते। प्रायो अमी मुनिगणा भवदीय मुख्या गूढम् वनेऽपि न जहत्यनघात्मदैवम्। नृत्यन्त्यमी शिखिन ईड्यमुदा हरिण्यः कुर्वन्ति गोप्यैव ते प्रियमीक्षणेन। सूक्तैश्च कोकिलगणा गृहमागताय धन्यावनौकसय्यान् हि सताम् निसर्गः। धन्येयमद्य धरणी तृणवीरुधस्त्वत् पादस्पृशो द्रुमलताः करजाभिमृष्टाः। नद्योद्रयः खगमृगाः सदयावलोकैर्गोप्योऽन्तरेण भुजयोरपि यत्स्पृहा श्रीः। श्रीशुक उवाच, एवम् वृन्दावनम् श्रीमत्कृष्णः प्रीतमनाः पशून् रेमे सञ्चारयन्नद्रेः सरित्रोधः सुसानुगः। क्वचिद् गायति गायत्सु मदान्धालिष्वनुव्रतैः उपगीयमानचरितः स्रग्वी सङ्कर्षणान्वितः। क्वचिच्च कलहंसानामनुकूजति कूजितम् अभिनृत्यति नृत्यन्तम् बर्हिणम् हासयन् क्वचित्। मेघगम्भीरया वाचानामभिर्दूरगान् पशून् क्वचिदाह्वयति प्रीत्या गोगोपालमनोज्ञया। चकोरक्रौञ्च चक्राह्व भारद्वाजांश्च बर्हिणः। अनुरौति स्म सत्त्वानाम् भीतवद्व्याघ्रसिंहयोः। क्वचित् क्रीडापरिश्रान्तम् गोपोत्सङ्गोपबर्हणम् स्वयम् विश्रमयत्यार्यम् पादसंवाहनादिभिः। नृत्यतो गायतः क्वापि वल्गतो युध्यतो मिथः। गृहीतहस्तौ गोपालान् हसन्तौ प्रशंसतुः। क्वचित् पल्लवतल्पेषु नियुद्धश्रमकर्षितः। वृक्षमूलाश्रयः शेते गोपोत्सङ्गोपबर्हणः। पादसंवाहनम् चक्रुः केचित्तस्य महात्मनः। अपरे हतपाप्मानो व्यजनैः समवीजयन् अन्ये तदनुरूपाणि मनोज्ञानि महात्मनः। गायन्ति स्म महाराज स्नेहकृन्नधियः शनैः। एवम् निगूढात्मगतिः स्वमायया गोपात्मजत्वम् चरितैर्विडम्बयन् रेमे रमालालितपादपल्लवो ग्राम्यैः समम् ग्राम्यवदीशचेष्टितः। श्रीदामा नाम गोपालो रामकेशवयोः सखा सुबलस्तोककृष्णाद्या गोपाः प्रेम्णेदमब्रुवन्। राम राम महाबाहो कृष्णदुष्टनिबर्हण। इतो विदूरे सुमहत् वनम् तालालिसङ्कुलम्। फलानि तत्र भूरीणि पतन्ति पतितानि च सन्ति किन्त्ववरुद्धानि धेनुकेन दुरात्मना। सोऽतिवीर्योऽसुरो राम हे कृष्ण खररूपधृक् आत्मतुल्यबलैरन्यैर्ज्ञातिभिर्बहुभिर्वृतः। तस्मात् कृतनराहारात् भीतैर्नृभिरमित्रहन् न सेव्यते पशुगणैः पक्षिसङ्घैर्विवर्जितम्। विद्यन्ते भुक्तपूर्वाणि फलानि सुरभीणि च एष वै सुरभिर्गन्धो विशूचीनोऽवगृह्यते। प्रयच्छतानि नः कृष्ण गन्धलोभितचेतसाम् वाञ्छास्ति महती राम गम्यताम् यदि रोचते। एवम् सुहृद्वचः श्रुत्वा सुहृत्प्रियचिकीर्षया प्रहस्य जग्मतुर्गोपैर्वृतौ तालवनम् प्रभु। बलः प्रविश्य बाहुभ्याम् तालान् सम्परिकम्पयन् फलानि पातयामास मतङ्गज इवौजसा। फलानाम् पततां शब्दम् निशम्यासुररासपः। अभ्यधावत् क्षितितलम् सनगम् परिकम्पयन् समेत्य तरसा प्रत्यग्द्वाभ्याम् पद्भ्याम् बलम् बली निहत्यो रसिका शब्दम् मुञ्चन् पर्यसरत्खलः पुनरासाद्य संरब्ध उपक्रोष्टापराक्षितः चरणावपरौ राजन् बलाय प्राक्षिपदृशा सतम् गृहीत्वा प्रपदोर्भ्रामयित्वैकपाणिना चिक्षेप तृणराजाग्रे ब्राह्मणत्यक्तजीवितम् तेनाहतो महातालो वेपमानो बृहच्छिराः पार्श्वस्थम् कम्पयन् भग्नः सजान्यम् सोऽपि चापरम् बलस्य लीलयोत्सृष्ट खरदेह हताहताः तालाश्च कम्पिरे सर्वे महावातेरिता इव नैतच्चित्रम् भगवती यनन्ते जगदीश्वरे ओतप्रोतमिदम् यस्मिन् तन्तुष्वङ्ग यथा पटः ततः कृष्णम् च रामम् च ज्ञातयो धेनुकस्य ये क्रोष्टारोभ्यद्रवन् सर्वे संरब्धा हतबान्धवाः तान्स्तानापततः कृष्णो रामश्च नृपलीलया गृहीतपश्चाच्चरणान् ब्राहिणोत्तृणराजसु फलप्रकरसङ्कीर्णम् दैत्यदेहैर्गतासुभिः रराजभूः सतालाग्रैर्घनैरिव नभस्थलम् तयोस्तत्सु महत्कर्म निशाम्य विभुदादयः मुमुचुः पुष्पवर्षाणि चक्रुर्वाद्यानि तुष्टुवुः अथ तालफलान्यादन्मनुष्यागतसाध्वसाः तृणम् च पशवश्चेरुर्हतधेनुककानने कृष्णः कमलपत्राक्षः पुण्यश्रवणकीर्तनः स्तूयमानोऽनुगैर्गोपैः साग्रजो व्रजमाव्रजत् तम् गोरजस्फुरितकुन्तलबद्धबरः वन्यप्रसूनरुचिरेक्षणचारुहासम् वेणुम् क्वणन्तमनुगैरनुगीतकीर्तिम् गोप्योदिदृक्षितदृशोऽभ्यगमन् समेताः पीत्वा मुकुन्दमुखसारघमक्षिभृङ्गैस्तापम् जहुर्विरहजम् व्रजयोषितोऽन्नि तत्सत्कृतिम् समधिगम्य विवेशगोष्ठम् सव्रीडहासविनयम् यदपाङ्गमोक्षम् तयोर्यशोदारोहिण्यौ पुत्रयोः पुत्रवत्सले यथा कामम् यथा कालम् व्यधत्ताम् परमाशिषः गताध्वानश्रमौ तत्र मज्जनोन्मर्दनादिभिः नीवीम् वसित्वा रुचिराम् दिव्यस्रग्गन्धमण्डितौ जनन्युपहृतम् प्राश्य स्वाद्वन्नमुपलालितौ संविश्य वरशय्यायाम् सुखम् सुषुपतुर्व्रजे एवम् स भगवान् कृष्णो वृन्दावनचरः क्वचित् ययौ राममृते राजन् कालिन्दीम् सखिभिर्वृतः अथ गावश्च गोपाश्च निदाघातपपीडिताः दुष्टम् जलम् पपुस्तस्यास्त्रिशार्ता विषदूषितम् विषाम्भस्तदुपस्पृश्य दैवोपहतचेतसः निपेतुर्व्यसवः सर्वे सलिलान्ते कुरूद्वः वीक्षतान्वै तथा भूतान् कृष्णो योगेश्वरेश्वरः ईक्षयामृतवर्षिण्या स्वनाथान् समजीवयत् ते सम्प्रतीतस्मृतयः समुत्थाय जलान्तिकात् आसन् सुविस्मिताः सर्वे वीक्षमाणाः परस्परम् अन्वमंसत तद्राजन् गोविन्दानुग्रहेक्षितम् पीत्वा विषम् परे तस्य पुनरुत्थानमात्मनः ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धे धेनुकवधो नाम पञ्चदशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।